यत्किङ्करेषुबहुशाखमुनाहवाने नित्यं परस्य पुरुषस्य स्कन्दमूले तस्या कदा रसनिधेर्विषवानुजाय तत्केलिकुञ्जभवनं च नमजनीशं तो ब्राह्मशूद्रशुक नारद विश्वमुख्यै अलक्षितो न सहसा पुरुषस्य तस्य सजावशीकरणचूर्णमनन्तशक्ति सम्राधिका चरणरेणु अनुस्मरामि यस्या कदापि वसनञ्चलकेदनाथ धन्यातिदन्यपवनेन कृतार्थमानि योगेन्द्रदुर्गमगतिर्मधुसूदनोऽपि तस्य नमस्तु विषमानुभुगो दिशेऽपि आदाख्ययोस्तव विना वरदस्यमेव नद्या कदापि समये किल देवि याचे सज्ञायते मम नमस्तु नमस्तु नित्या दास्यायते मम रसस्तु रसस्तु सत्यम् देविका कुपरगर्गदयाच याचे निपात्य भुवि दण्डवधूपतासि अस्या प्रसादमबुदास्य जनस्य कृत्वा गन्धर्विकेणि च गणे गणनं विधेहि असम्भाष्य तद्भावगम्भीरचिन्तनं कुलाशमसिन्दुरसस्य भगवन् भजामि राधामरविन्दनेत्रं स्मरामि राधामधुरास्मितस्य वदामि राधां करुणावरदं ततो मम नास्ति गति
Thank you. Oh, my God.